एष रेडियो नेपाल सम्प्रति समाचार श्रीयन्ताम् प्रवाचक ध्रुव भट्टराई प्रधानमन्त्री शेरबहादुरदेववा वदति साहित्यम् संगीतम् कला च राष्ट्रस्य अमूल्यानि आभूषणानि सन्ति पूर्व राजदूतस्य प्रतिभा राणा इत्यस्य गहिराई इति शीर्षकस्य नेपाली कविता संग्रहस्य कर्टेन अफ माया इति शीर्षकस्य आंग्ल भाषा कृतिश्च विमोचन समारोहे ह्य प्रधानमन्त्री देववा अवोचत साहित्य संगीत कलाभिर विना समाज देशस्य पूर्णताम् नाप्नुतः। प्रधानमन्त्री देववा एतेषाम् क्षेत्राणाम् विकासाय विभिन्नानि प्रतिष्ठानानि संस्थाप्य सर्वकारणा नैक विधानि कार्याणि अग्रेसारितानि सन्तीति अज्ञापयत। प्रधानमन्त्री देववा नेपाली साहित्यम् अतिरिक्तम् परिष्कृत्य परिमार्ज्य च विश्व साहित्येन सह प्रतिस्पर्धाक्षमम् विधातुम् आवश्यकम् अस्तीति भाषमाण तत्र क्रियाशीला भवितुम् साहित्यकारान् अन्वरुणत। नेपाली कांग्रेस दलेन संघीय प्रादेशिक सभानाम् आसन्न निर्वाचनम् लक्ष्यीकृत्य भाद्रस्य दशम दिवसात् राष्ट्रिय अभियानम् सञ्चालयिष्यते। सानेपा वर्तिनी दलस्य केन्द्रीय कार्यालय ह्य उपविष्टेन कार्य सम्पादन समिति उपवेशेन पूर्वम् भाद्रस्य द्वितीय दिवसात् निर्धारितम् निर्वाचन लक्षितम् राष्ट्रिय अभियानम् भाद्रस्य दशम दिवसात् चतुर्विंशम् दिवसम् यावत् सञ्चालितुम् निर्णितमिति उपवेशस्य पश्चात् कांग्रेस दलस्य सह महामन्त्री भीष्मराज आङदेम्बे अज्ञापयत्। उपवेशेन दलस्य पक्षतः निर्वाचनस्य प्रतिस्पर्धिनी प्रत्याशिनी प्रत्याशिता मनोनयनस्य औपचारिक पत्र प्रदानाय दल सभापतये शेरबहादुरदेववा विधेयाय दायित्वं दातुं निर्णितमस्ति। प्रक्रियां प्रपूर्य प्रत्याशिनां नाम्नां प्रस्ताव परामर्शनयो कृते दलस्य सम्बद्धं निकायम् उपयुक्त समये केन्द्रीय कार्यालयस्य माध्यमेन निर्देष्टुं निर्णितमिति सह महामन्त्री आङदेम्बे अवोचत्। एवमेव उपवेशेन मार्गशीर्ष मासस्य चतुर्थी दिवसे सम्पत्स्यमानाय प्रतिनिधिसभाय प्रदेशसभानां च सदस्यानां निर्वाचनाय दलं पञ्जीकर्तुं निर्णीय दल पञ्जीकरणस्य दायित्वं दलस्य मुख्य सचिवाय कृष्ण प्रसाद पौडेलाय दत्तम् इति च सह महामन्त्री आङदेम्बे अज्ञापयत्। आगामिनो मार्गशीर्ष मासस्य चतुर्थी दिवसे सम्पत्स्यमानस्य प्रतिनिधिसभाय प्रदेशसभानां च सदस्यानां निर्वाचनस्य प्रयोजनाय ह्य अपराह्नम् यावत् चत्वारिंशत् राजनीतिक दलै दल पञ्जीकरणम् कारितमस्ति। राष्ट्रिय मान्यताम् प्राप्तवद्भि नेकपा एमाले दलेन लोकतान्त्रिक समाजवादी दलेन नेकपा एकीकृत समाजवादी प्रवृत्तिभि दलैश्च निर्वाचने भाग ग्रहणाय दल पञ्जीकरणम् कारितमिति आयोगेन ज्ञापितम् वर्तते। आयोगेन प्रतिनिधिसभाय प्रदेशसभानां च सदस्यानां प्रत्यक्ष निर्वाचन प्रणाल्या समानुपातिका निर्वाचन प्रणाल्याश्च निर्वाचने भागग्रहणाय अशैव त्रिंशत् द्वाविंशत् दिवसात् एकत्रिंशम् दिवसम् यावत् दल पञ्जीकरणाय आहूतमस्ति। सार्वजनिका प्रकाशस्य दिनेऽपि आयोगस्य कार्यालय उद्घाट्यते। निर्वाचनेन सम्बद्धानि कार्याणि नियमित रूपेण सम्पाद्यन्ते इति च आयोगस्य प्रवक्ता शालिग्राम शर्मा पौडेल अज्ञापयत्। नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्ड कथयति माओवादी केन्द्रम् आगामी निर्वाचने अधिकम् जनसमर्थनम् प्राप्स्यति। पेरिस डाँडा स्थिति दलस्य केन्द्रीय कार्यालय ह्य आयोजितायम् पुष्ट बहादुर बोगटी स्मृति प्रतिष्ठानस्य एकादश्यां वार्षिक साधारण सभायाम् अध्यक्ष प्रचण्ड अवदत् संविधान गणतन्त्र रक्षाय वामपन्थी विचाराणाम् एकत्र केन्द्रीकरणस्य रणनीतिम् निर्माय अग्रे वर्धनम् वर्तमान आवश्यकता वर्तते। अध्यक्ष प्रचण्ड विचार व्यवहारयो एकरूपताय अभावात् दलाभ्यन्तरम् समूहोपशम निर्माणम् अन्त्यम् न प्राप्तम् इत्यतः पूर्वकालिके निर्वाचने परिणाम दुर्बलो दृष्ट इति स्वीकृतवान्। भौतिक पूर्वाधार यातायात मन्त्री मोहम्मद इस्तेकराई कथयति विभिन्नान् प्रपञ्चान् प्रदर्श्य यथासमयम् आयोजनानां कार्याणाम् असम्पादकः निर्माण व्यवसायिनः दण्ड्यन्ते। वीरगंज महानगरपालिकाय सप्तदश वडा क्षेत्रस्य एकोनविंशति वडा क्षेत्रस्य च योजकस्य तिलावे नद्यां निर्मितस्य सेतोः उद्घाटन कार्यक्रमे ह्यो मन्त्री राई मन्त्रालयस्य अन्तर्गतानां मार्ग पेयजल सिञ्चन पूर्वाधारे सम्बद्धानां राष्ट्रियस्तरस्य आयोजनानां निर्माणम् यथासमयम् सम्पाद मन्त्रालयेन कार्याणि अग्रे वर्धापितानि सन्तीति ज्ञापितवान्। कार्यक्रमे वन वातावरण मन्त्री प्रदीप यादव मन्त्रालयस्य कार्येन अवरुद्धानि विभिन्नानाम् आयोजनानां कार्याणि विधे अनुसारेण अग्रे वर्धयितुं प्रतिबद्धतां व्यक्तवान्। त्र्यधिक शत मीटरमित सेतुरसौ सप्तानां कोटीनां एकसप्तति लक्षाणां च रूप्यकाणां व्ययेन निर्मित इति मार्ग विभागेन ज्ञापितमस्ति। नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओलीन राष्ट्रिय प्रजातन्त्र दलस्य अध्यक्ष राजेन्द्र लिङ्गने इत्यस्य च मध्ये राष्ट्रिय राजनीतिम सामूहिक विषम च आदृत्य यो विमर्शनम् अभवत्। बालकोट स्थित ओली निवासी अन्यहरू मध्ये नैर्वाचनिक समन्वय सहकार्यहरू विषय विमृष्टमिति राप्रपा दलस्य प्रवक्ता मोहन श्रेष्ठ अवोचत। राष्ट्रिय प्रजातन्त्र दलेन सर्वदलैसह संवादस्य द्वारा अनावृतमिति हेतोः विमर्शनमेतत् सम्पन्नमिति प्रवक्ता श्रेष्ठ अगदत्। सर्वकारेण चक्रवृद्धि धनार्जकानां जनानां विरूद्धे अधिकाधिक प्रमाणानां संकलनाय स्थानीय प्रशासन कार्यालयेषु निवेदनानि दातुं पीडिता जना आहूताः सन्ति। चक्रवृद्धि धनार्जनस्य अपराधस्य नियन्त्रणाय प्रधानमन्त्रिण शेरबहादुर देउवा विदेश निर्देशनस्य पश्चात् गत शुक्रवासरे गृहमन्त्री स्तरीय निर्णयेन चक्रवृद्धि धनार्जनस्य अपराधस्य नियन्त्रणाय परामर्शनं दातुं संघटितेन कार्यदलेन ह्यः सूचनां प्रकाश्य आगामिनो भाद्रस्य पञ्चम दिवसं यावत् निवेदनानि पञ्जीकर्तुम् आहूतं वर्तते। आराष्टम ह्य अतिरिक्तेष् त्रिषष्ट्यधिक शतद्वय जनेष् कोरोना विषाणु संक्रमण पुष्टीभूतमिति स्वास्थ्य जनसंख्या मन्त्रालय ज्ञापयति। कोरोना विषाणु संक्रमणात् ह्य एकोत्तर पञ्चशतम जना मुक्ता जनद्वय मृतम चेति मन्त्रालय ज्ञापयति। सम्प्रति आराष्टम पञ्चसहस्राणि चतुस्त्रिंशदुत्तर चतुशतम च सक्रिय संक्रान्त जना सन्ति। ह्य लक्षम सप्तविंशति सहस्राणि एकविंशत्यधिक त्रिशतम च जना कोरोना विषाणु प्रतिरोधी टीकाकरण आदधत इति मन्त्रालयसो सूचयति। रूकुम पूर्व जनपदस्य पुथा उत्तर गंगा ग्रामपालिका एकादशवटा क्षेत्रस्य तल्लो सेरा स्थानस्य निकटे यः प्रहरीण बिहान यानम् दुर्घटनाम् सत् एक प्रहरी मृत पञ्चजना आहताश्च वर्तन्ते। दुर्घटनायाम् रूकुम पूर्व जनपद प्रहरी कार्यालय कार्यरत रोल्पा जनपदस्य लक्ष्मण पुन मृतोस्ति। आहतेषु जनेषु बिहान यान चालकस्य प्रहरी हवलदार पदीयस्य कुमार डांगी इत्यस्य, प्रहरीण सन्तोष बुढा विदेश च अवस्था गभीरा स्थिति प्रहरीण ज्ञापितमस्ति। रूकुम पूर्व जनपद प्रहरी कार्यालयस्य प्रमुख प्रहरी नायब उपरीक्षक प्रकाश डांगी, रूकुम पूर्व जनपदस्य सशस्त्र प्रहरीण प्रमुख प्रहरी नायब उपरीक्षक रविन्द्र श्रेष्ठ, प्रहरी इन्द्र घरती च सामान्य आहता सन्तीति रूकुम पूर्व प्रमुख जनपदाधिकारी तोलाराज सुनवार ज्ञापयति। आहता जना नेपाली सेना हेलिकप्टर यानेन बाँके जनपदम प्रेषिता, तत्र तेषु चिकित्सालयेषु उपचाररताश्च सन्तीति प्रमुख जनपदाधिकारी सुनवार ज्ञापितवान्। बिहानयानम् मार्गात् आसन्न शतमिटरमितात् अधः पतितम् आसीदिति प्रहरीण ज्ञापितम् वर्तते। पश्चिम नवलपरासी जनपदस्य भैरवा भूमै मार्गखण्डे ह्य ट्रक यानेन बसयानम् प्रहृतम् सत् उनविंशति जना आहताः सन्ति इति समाचारः।